एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। देशस्य विभिन्न स्थानीय स्तरेषु रिक्तानाम् एकचत्वारिंशतः पदानां कृते ह्यः सम्पन्नस्य उपनिर्वाचनस्य मतगणनां प्रारभ्य सम्प्रति मतपरिणामस्य प्राप्तेः क्रमः प्रारब्धोऽस्ति। प्राप्त पश्चातन मत परिणामस्य अनुसारेण ओखलढुंगा जनपदस्य मोलुङ ग्रामपालिकायाः पञ्चमौडा क्षेत्रस्य अध्यक्ष पदे एमाले दलस्य पक्षतः प्रत्याशी गंगा बहादुर तामाङ विजयी सम्भूतोऽस्ति। अत्रान्तरे ओखलढुंगा जनपद समन्वय समितेः प्रमुख पदे नेपाली कांग्रेस दलस्य टेकराज भट्टराई निर्विरोधम निर्वाचितोऽस्ति इति उद्घुष्टम् वर्तते। कालीकोट जनपदस्य तिलागुफा ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य अध्यक्ष पदे नेमकिपा नाम्नो नेपाल मजदूर किसान दलस्य खड्गराज शाही विजयी सम्भूतोऽस्ति। दार्चुला जनपदस्य दुहु ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य अध्यक्ष पदे नेपाली कांग्रेस दलस्य धनबहादुर कुँवरनी विजयी सम्वृतोऽस्ति। कुशे ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य अध्यक्ष पदे नेपाली कांग्रेस दलस्य खम्बबहादुर सिंह निर्वाचितः इति निर्वाचन आयोगेन ज्ञापितमस्ति। रूकुम जनपदस्य सानीभेरी ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य अध्यक्ष पदे नेपाली कांग्रेस दलस्य पक्षतः प्रत्याशी मुतिराम खत्री विजयी सम्भूतो वर्तते। डुटी जनपदस्य पूर्वी चौकी ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य अध्यक्ष पदे नेपाली कांग्रेस दलस्य मोहन थापा विजयी सम्भूत इति आयोगेन ज्ञापितमस्ति। कीर्तिपुर नगरपालिकायाः मतगणना प्रारब्धा वर्तते इति निर्वाचनाधिकृतः इन्दिरा कार्की ज्ञापयति। तत्पूर्वं ह्यः स्थानीय स्तरस्य रिक्तानाम् एकचत्वारिंशतः रिक्तपदानां कृते शान्तिपूर्णरूपेण उपनिर्वाचनं सम्पन्नम् आसीत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन स्थानीय स्तरस्य उपनिर्वाचनम् निष्पक्षम् उत्साहपूर्ण रूपेण सम्पन्नम् इत्यत्र सर्वेभ्य धन्यवादः व्यक्तोऽस्ति। प्रधानमन्त्री केपी शर्मा ओली चीनदेशस्य औपचारिकस्य भ्रमणस्य कृते अद्य प्रातः बैजिङ नगरं प्रतिष्ठते। चीनदेशस्य प्रधानमन्त्रिणः ली छ्याङ इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां प्रधानमन्त्री ओली अद्यतः अस्यैव मार्गशीर्ष मासस्य विंशं दिवसं यावत् चीनदेशस्य औपचारिकं भ्रमणं विदधानो वर्तते। भ्रमणस्य क्रमे प्रधानमन्त्रिणा ओलिना चीनदेशस्य राष्ट्रपतिना सी जिनफिङ इत्यनेन सह मेलवार्ता करिष्यते इति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। प्रधानमन्त्रिणा ओलिना चीनदेशस्य समकक्षिणा ली इत्यनेन सह मेलवार्तां विधाय द्विपक्षीयस्य पारस्परिक हितस्य विविधेष् विषयेष् विमृक्ष्यते। प्रधानमन्त्रिणः ओलिनः चीनदेशस्य राष्ट्रिय जनकांग्रेस स्थायी समितेः अध्यक्षेण झाओ लेजी इत्यनेन सहापि मेलवार्तायाः कार्यतालिका वर्तते। भ्रमणस्य क्रमे प्रधानमन्त्री ओली पेकिङ विश्वविद्यालये सम्बोधयिष्यति। एवमेव प्रधानमन्त्री ओली बेजिङ अवर्तिनः नेपाली राजदूतावासस्य चाइना काउन्सिल फर द प्रमोशन अफ इन्टरनेशनल ट्रेड संस्थायाः नेपाल उद्योग वाणिज्य महासंघस्य च संयुक्त आयोजनायां सम्पत्स्यमानं नेपाल चीन व्यापार मञ्चं च सम्बोधयिष्यति। भ्रमणावसरे प्रधानमन्त्रिणः पत्नी राधिका शाक्यः अपि प्रधानमन्त्रिणा सहैव भविष्यति। प्रधानमन्त्रिणः ओलिनः नेतृत्वस्य प्रतिनिधिमण्डले परराष्ट्रमन्त्री डाक्टर आर्जु राणा देउवा, प्रधानमन्त्रिणः प्रमुख परामर्शदाता विष्णु रिमालः, प्रधानमन्त्रिणः आर्थिक सामाजिक परामर्शदाता डाक्टर युवराज खतिवडा, सांसदः, सर्वकारीय विशिष्टाधिकारिणः, नैज क्षेत्राणां प्रतिनिधयः, संचारकर्मिणश्च सहभागिनः भविष्यन्ति। प्रधानमन्त्रिणः नेतृत्वस्य प्रतिनिधिमण्डलम् अस्यैव मार्गशीर्ष मासस्य विंशे दिवसे स्वदेशं प्रत्यागमिष्यति। सर्वकारेण इक्षुः न्यूनतमं क्रयणमूल्यं प्रति क्विंटल परिमाणस्य 85.5 रूप्यकाणि निर्धारितानि सन्ति। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकीकुर्वन् सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरुङ वर्तमानार्थिक वर्षस्य कृते इक्षुः उत्पादन व्ययस्य परिवहनस्य लाभांशस्य च संयोजनेन इक्षुः न्यूनतमं मूल्यं निर्धारितमस्ति इति असूचयत्। उपवेशेन ऐषयिक विश्वकोशाद् वातावरण सम्बद्धायाः योजनायाः कृते प्रस्तावितस्य 22 मिलियन अमेरिका देशीय डॉलर मुद्रा अनुदानत्वेन 10 मिलियन अमेरिका देशीय डॉलर मुद्रा ऋण सहयोगत्वेन च स्वीकर्तुम् निर्णीतमस्ति इति मन्त्री गुरुङ असूचयत्। एवमेव नवीनतम यान्त्रिक सिंचन योजनायाः क्रियान्वयनाय प्राप्यस्य 10.1 मिलियन डलर मुद्रा सौविध्य युक्त ऋणत्वेन 15 मिलियन डलर मुद्रा अनुदानत्वेन स्वीकर्तुम् निर्णीतमस्ति इति संचार मन्त्री गुरुङ अज्ञापयत्। रोल्पा जनपदे निर्माणाधीनस्य दोला सेतोः भित्तौ भग्नायां सत्यां तया पूरणेन 5 श्रमिकाः मृताः सन्ति। लुम्बिनी प्रदेशस्य प्रमुख प्रहरी नायब महानिरीक्षकस्य कुबेर कठायत इत्यस्य अनुसारेण सुनछारी ग्रामपालिकायाः तृतीय वडा क्षेत्रस्य गाम ग्रामे निर्माणाधीनस्य दोला सेतोः आधारभित्तिकायाः भञ्जनात् स्थानीयः 45 वर्षीयः दुजमान परियारः, 31 वर्षीयः ओम परियारः, 44 वर्षीया सुवित्रा परियारः, 27 वर्षीया आईती परियारः, 67 वर्षीयः देवीराम परियारश्च मृताः वर्तन्ते। मौलावांग इत्यस्य बाह्य गाम ग्रामीण सह योजनाया निर्माणाधीनस्य दोला सेतोः आधारभित्तेः भञ्जनात् एते पूरिताः सन्ति इति प्रहरिणा ज्ञापितम् वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ निगदति सर्वकारः राजनीतिक स्थायित्वस्य संघीयतायाः सबलीकरणस्य च कृते आवश्यकाय सुधाराय प्रतिबद्धतया अग्रे वर्धमानो वर्तते। काष्ठमण्डपे ह्य आयोजिते 12 खरी कथा प्रतियोगितायाः पुरस्कार वितरण कार्यक्रमे संचार मन्त्री गुरुङ वर्तमान सर्वकारः देशम् नवीन कार्यदिशः प्रदानाय नीतिगत सुधाराय संस्थागत व्यवस्थापनाय च प्रतिबद्धोऽस्ति इति अगदत्। मन्त्री गुरुङ विकासस्य कृते 3 खर्व रूप्यकाणां विनियोजनस्य अवस्थायामपि व्ययं कर्तुं समर्थाभावः विडम्बना वर्तते इति चर्चयन् सर्वकारेण व्यये बलं दीयते तदर्थं नीतिगतः विधिगतश्च सुधारः करिष्यते इति अभाषत। राष्ट्रपतिः रामचन्द्र पौडेलः विभिन्नेष् चतुर्ष् देशेष् नियुक्तान् राजदूतान् पदगोपनीयतयोः शपथम् अग्राहयत्। शपथम् गृह्णत् नवनियुक्तेष् राजदूतेष् अमेरिकादेशस्य कृते लोकदर्शन रेग्मी, जर्मनी देशस्य कृते डॉ शैल रूपाखेती, सऊदी अरबिया देशस्य कृते डॉ नरेश विक्रम ढकालः, अस्ट्रेलिया देशस्य कृते च चित्रलेखा यादवः वर्तन्ते। जनकपुरे सप्ताहव्यापितया आयोक्ष्यमाणः सीताराम विवाह पञ्चमी महोत्सवः ह्यस्तनात् दिवसात् प्रारब्धोऽस्ति इति समाचारः।